श्रीगुरुभ्यो नमः। अथातो मात्राशीतीयमध्यायम् व्याख्यास्यामः। इतिहस्माहुरात्रेयादयो महर्षयः। मात्राशी सर्वकालम् स्यान्मात्रा ह्यग्नेः प्रवर्तिका। मात्रा द्रव्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि। गुरूणामर्धसौहित्यम् लघूनाम् नातितृप्तता। मात्रा प्रमाणम् निर्दिष्टम् सुखम् यावत् हि जीर्यति। भोजनम् हीनमात्रम् तु न बलोपचयोजसे। सर्वेषाम् वातरोगाणाम् हेतुताम् च प्रपद्यते। अतिमात्रम् पुनः सर्वानाशु दोषान् प्रकोपयेत्। पीड्यमाना हि वाताद्या युगपत्तेन कोपिताः। आमेनान्येन दुष्टेन तदेवाविश्य कुर्वते। विष्टम् भयन्तो लसकम् च्यावयन्तो विशूचिकाम्। अधरोत्तरमार्गाभ्याम् सहसैवाजितात्मनः। प्रयातिनोर्ध्वम् नाधस्तादाहारो न च पच्यते। आमाशये लसी भूतस्तेन सोलसकः स्मृतः। विविधैर्वेदनोद्भेदैः वाय्वादिभृशकोपतः। शूचीभिरिव गात्राणि विध्यतीति विशूचिका। तत्र शूलभ्रमानाः कम्पस्तम्भादयो निलात्। पित्ताज्वरातिसारान्तर्दाहतृट्प्रलयादयः। कफाच्छर्द्यङ्गगुरुता वाक्सङ्गष्टीवनादयः। विशेषाद्दुर्बलस्याल्पवह्नेर्वेगविधारिणः। पीडितम् मारुतेनान्नम् श्लेष्मणारुद्धमन्तरा। अलसम् क्षोभितम् दोषैः शल्यत्वेनैव संस्थितम्। शूलादीन् कुरुते तीव्रांश्चर्द्यति सारवर्जितान्। सोलसः अत्यर्थदुष्टास्तु दोषादुष्टामबद्धकाः। यान्तस्तिर्यक्तनुम् सर्वाम् दण्डवत्स्तम्भयान्ति चेत् स दण्डालसको नाम तम् त्यजेदाशुकारिणम्। विरुद्धाद्यशनाजीर्णशीलिनो विषलक्षणम्। आमदोषम् महाघोरम् वर्जयेद्विषसञ्ज्ञकम्। विषरूपाशुकारित्वात् विरुद्धोपक्रमत्वतः। अथाममलसीभूतम् साध्यम् त्वरितमुल्लिखेत्। पीत्वा सोग्रा पटुफलम् वार्यूष्णम् योजयेत्ततः। स्वेदनम् फलवर्तिम् च मलवातानुलोमनीम्। नाम्यमानानि चाङ्गानि भृशम् स्विन्नानि वेष्टयेत्। विशूच्यमतिवृद्धायाम् पाष्ण्योर्धाः प्रशस्यते। तदहश्चोपवास्यैनम् विरिक्तवदुपाचरेत्। तीव्रार्तिरपि नाजीर्णी पिबेत् शूलग्नमौषधम्। आमसन्नो नलो नालम् पक्तुम् दोषौषधाशनम्। निहन्यादपि चैतेषाम् विभ्रमः सहसातुरम्। जीर्णाशने तु भैषज्यम् युज्यात् स्तब्धगुरूदरे। दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च। शान्तिरामविकाराणाम् भवति त्वपतर्पणात्। त्रिविधम् त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्। तत्राल्पे लङ्घनम् पथ्यम् मध्ये लङ्घनपाचनम्। प्रभूते शोधनम् तद्धि मूलादुन्मूलयेन्मलान्। एवमन्यानपि व्याधीन् स्वनिदानविपर्ययात्। चिकित्सेदनुबन्धे तु सति हेतुविपर्ययम्। त्यक्त्वा यथा पथम् वैद्यो युञ्जाद्व्याधिविपर्ययम्। तदर्थकारी वापक्वे दोषे द्विद्धे च पावके हितमभ्यञ्जनस्नेहपान वस्त्यादियुक्तितः अजीर्णं तु कपादामं तत्र शोफोक्षिगण्डयोः सद्यो भुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम् पिष्टब्धमनिलाच्छूल विबन्धाद्मानसादकृत् पित्ताद्विदग्धं तृण्मोह भ्रमाम्लोद्गारदाहकृत् लङ्घनं कार्यमामेतु विष्टब्धे स्वेदनं भृशम् विदग्धेव मनं यद्वा यथावस्थं हितं भवेत् गरीयसो भवेल्लीनादामादेव विलम्बिका कफवातानुबद्धामलिङ्गा तत्समसाधना अश्रद्धा हृद्यथा शुद्धेऽप्युद्गारे रसशेषतः शयीत किञ्चिदेवात्र सर्वश्चानशितो दिवा स्वप्यादजीर्णी सञ्जात बुभुक्षोद्यान्मितं लघु विबन्धोति प्रवृत्तिर्वा ग्लानिर्मारुतमूढता अजीर्णलिङ्गं सामान्यं विष्टं भोगौरवं भ्रमः न चातिमात्रमेवान्नमामदोषाय केवलम् द्विष्टविष्टं विदग्धाम गुरुरूक्षहिमाशुचि विदाहि शुष्कमत्यम्बुप्लुतं चान्नं न जीर्यति उपतप्तेन भुक्तं च शोकक्रोधक्षुधादिभिः मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतं विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम् अकाले बहुवाल्पं वा भुक्तं तु विषमाशनम् त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन् सृजन्ति वा काले सात्म्यं शुचिहितं स्निग्धोष्णं लघुतन्मनाः षड्रसं मधुरप्रायं नातिद्रुतविलम्बितम् स्नातक्षुद्वान्विविक्तस्थो धौतपादकराननः तर्पयित्वापि तृन्देवानतिथीन् बालकान् गुरून् प्रत्यवेक्ष्य तिरश्चोऽपि प्रतिपन्नपरिग्रहान् समीक्ष्य सम्यगात्मानामनिन्दन्न ब्रुवन् द्रवम् इष्टमिष्टैः सहाश्नीयात् शुचिभक्तजनाहृतम् भोजनं तृणकेशादिजुष्टमुष्णीकृतं पुनः शाकावरान्न भूयिष्टमत्युष्णलवणं त्यजेत् कीलाटदधिकूर्चिकक्षारक्षुक्ताममूलकम् कृशशुष्कवराहाविगोमत्स्या महिषामिषम् आशनिष्पावशालूक विषपिष्टविरूढकम् शुष्कशाकानि यवकान् पाणितं च न शीलयेत् शीलयेच्छालिगोधूम यवषष्टिकजाङ्गलम् सुनिषण्णक जीवन्ती बालमूलकवास्तुकम् पथ्यामलकमृद्वीका पटोलीमुद्गशर्कराः घृतदिव्योदकक्षीर क्षौद्रदाडिमसैन्धवम् त्रिफलां मधुसर्पिभ्यां निशिनेत्रबलाय च स्वास्थ्यानुवृत्तिकृत्यच्च रोगोच्छेदकरं च यत् बिसेक्षुमोचोचाम्र मोदकोत्कारिकादिकम् अद्याद्रव्यं गुरुस्निग्धं स्वादुमन्दं स्थिरं पुनः विपरीतमतश्चान्ते मध्येम् ललवणोत्कटम् अन्नेन कुक्षेर्द्वावंशो पानेनैकं प्रपूरयेत् आश्रयं पवनादीनां चतुर्थमवशेषयेत् अनुपानं हिमं वारि यवगोधूमयोर्हितं दध्निमध्ये विसेक्षौद्रे कोष्णं पिष्टमयेषु तु शाकामुद्गादिविकृतौ मस्तु तक्राम्लकाञ्जिकम् सुराकृशानां पुष्ट्यर्थं स्थूलानां तु मधूदकम् शोषे मांसरसो मद्यं मांसे स्वल्पे च पावके व्याध्यौषधाध्वभाष्यस्त्री लङ्घनातपकर्मभिः क्षीणे बाले च वृद्धे च पयःपथ्यं यथामृतम् विपरीतं यदन्नस्य गुणैः स्यादविरोधि च अनुपानं समासेन सर्वदा तत्प्रशस्यते अनुपानं करोत्युर्जां तृप्तिं व्याप्तिं दृढाङ्गताम् अन्नसङ्घातशैथिल्य विक्लित्तिजरणानि च नोर्ध्वजतृगदश्वास कासो रक्षतपीनसे गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम् प्रक्लिन्न देहमेहाक्षि गलरोगवृणातुराः पानं त्यजेयुः सर्वश्च भाष्याध्वशयनं त्यजेत् पीत्वा भुक्त्वा तपं वह्निं यानं प्लवनवाहनम् प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे विशुद्धे चोद्गारे क्षुदुपगमने वातेऽनुसरति यथाग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ प्रयुञ्जीताहारं विधिनियमितः कालः सहिमतः इति श्रीवैद्यपतिसिंहगुप्तसूनु वाग्भटविरचितायाम् अष्टाङ्गहृदयसंहितायाम् सूत्रस्थाने मात्राशितीयो नाम अष्टमोऽध्यायः।